नमस्सर्वेभ्यः अद्य छन्दोवर्गस्य एकादशः पाठः अस्मिन् पाठे वयं भुजङ्गप्रयातम् इत्यस्य वृत्तस्य लक्षणं ज्ञात्वा तस्य उदाहरणानि पश्यामः भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः इति भुजङ्गप्रयातस्य लक्षणम् भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः अत्र अस्य वृत्तस्य प्रस्तारं पश्यामः भु इति लघुः ज ह्रस्वः अग्रे संयोगः अस्ति अतः गुरुः ङ अत्रापि अग्रे संयोगः अस्ति अतः गुरुः प्र लघुः या तं भ वेद्यैश च तुर्भिः गणविभागं कुर्मः चेत् सर्वे अपि गणाः समानाः आदि लघुः आदि मध्यावसानेषु य रतायान्ति लाघवं यगणः आदि लघुः यगणः अतः चत्वारः यगणाः अस्मिन् वृत्ते सन्ति तदेव उच्यते भुजङ्गप्रयातं भवेत् यैः नाम य य य य य इति चतुर्भिः यैः चत्वारः यगणाः यत्र सन्ति तत्र भुजङ्गप्रयातम् इति वृत्तं प्रतिपादं द्वादश अक्षराणि भवन्ति लघु गुरु गुरु लघु गुरु गुरु इत्येवम् अयं क्रमः यगणः आवर्तते सर्वत्र भुजङ्गप्रयातमिति अत्यन्तं प्रसिद्धं वृत्तं विशिष्य श्रीमच्छङ्करभगवत्पादैः बहूनि स्तोत्राणि भुजङ्गप्रयातवृत्ते रचितानि शारदाभुजङ्गं गणेशभुजङ्गं शिवभुजङ्गं विष्णुभुजङ्गं श्रीरामभुजङ्गं देवीभुजङ्गम् इत्येवं सुब्रह्मण्यभुजङ्गम् इत्येवं प्रायः सर्वाः देवताः उद्दिश्य भुजङ्गप्रयातवृत्ते श्रीमच्छङ्करभगवत्पादैः स्तोत्ररचनं कृतमस्ति तत्र द्वित्राणि उदाहरणानि पश्यामः अयं श्लोकः शारदाभुजङ्गस्तोत्रस्य प्रथमः श्लोकः सुवक्षोजकुम्भां सुधापूर्णकुम्भां प्रसादावलम्बां प्रपुण्यावलम्बां सदास्येन्दुबिम्बां सदानोष्टबिम्बां भजे शारदाम्बामजस्रं मदम्बाम् अत्र लक्षणसमन्वयं पश्यामः सु इति लघुः व अग्रे संयोगः अस्ति अतः गुरुः क्षो ज कुम्भाम् सु धापूर्ण कुम्भाम् स्पष्टमस्ति लघु गुरु गुरु लघु गुरु गुरु इत्येवं चत्वारः यगणाः अत्र सन्ति अयमपि अत्यन्तं प्रसिद्धः श्लोकः विना वेङ्कटेशं ननाथो ननाथः सदा वेङ्कटेशं स्मरामि स्मरामि हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ अत्रापि पश्यामः चेत् वि इति लघुः ना वे इति गुरु क तेषं न नाथो न नाथः अत्रापि भुजङ्गप्रयातस्य लक्षणम् अस्ति भुजङ्गप्रयातं भवेत् यैः चतुर्भिः एवं वयमद्य भुजङ्गप्रयातवृत्तस्य लक्षणं ज्ञातवन्तः भुजङ्गप्रयाते प्रतिपादं द्वादश अक्षराणि भवन्ति य य य य चत्वारः यगणाः भवन्ति लक्षणमस्ति भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः इति अभ्यासपत्रे दत्तेषु वाक्येषु प्रस्तारं विलिख्य भुजङ्गप्रयातवृत्तस्य अभ्यासं कुर्वन्तु।